इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः पुनीत त्रिपाठी। अथ वार्ताः। विकसित भारतस्य मार्गः जनानाम् ऐक्ये निहितः अस्ति इति प्रधानमन्त्रिणा नरेन्द्रमोदिना उक्तम्। प्रधानमन्त्री अवदत् यत् अनेकाः कठिनपरिस्थितयः सम्मुखीकृत्य अपि गोवाराज्यं न केवलं स्वस्य मूलसंस्कृतेः संरक्षणम् अकरोत्, अपितु कालान्तरे तस्य पुनरुज्जीवनम् अपि अकरोत्। गोवाराज्यस्य कान्कोनानगरस्य समीपस्थस्य श्रीसंस्थानगोकर्णपाटगलि जीवोत्तममठस्य सार्ध पञ्चशततममनोत्सवे भक्तानां समागमं सम्बोधयन् सः समाजाय चिरस्थायि योगदानाय ऐतिहासिकमठस्य प्रशंसाम् अकरोत्।
आज जब इस पवित्र मठ के 550 वर्ष पूरे हो रहे हैं, तब हम इतिहास का उत्सव मनाने के साथ ही भविष्य की दिशा भी तय कर रहे हैं। विकसित भारत का रास्ता एकता से होकर जाता है। जब समाज जुड़ता है, जब हर क्षेत्र हर वर्ग एक साथ खड़ा होता है, तभी राष्ट्र बड़ी छलांग लगाता है। श्री संस्थान गोकर्ण पर्तगाली जीवोत्तम मठ का प्रमुख ध्येय लोगों को जोड़ना, मन को जोड़ना, परंपरा और आधुनिकता के बीच सेतु बनना है। इसलिए विकसित भारत की यात्रा में ये मठ एक प्रमुख प्रेरणा केंद्र की भूमिका में भी है।
श्री मोदी अवदत् यत् एषा संस्था न केवलम् आस्थायाः अपितु मानवतायाः संस्कृतेः च रक्षणं करोति इति। प्रधानमन्त्रिणा पाटगलि इत्यत्र प्रभु श्रीरामस्य 770 फीटमितस्य कांस्य प्रतिमायाः अनावरणं कृतम्। देशस्य सकल देशीयोत्पादः वर्तमानिक वित्तवर्षस्य द्वितीयत्रैमासिके 0.2% प्रबलं वृद्धिं प्राप्तवानिति अभिलिखितमस्ति। विषयेऽस्मिन् प्रधानमन्त्रिणा स्वकीये सन्देशे प्रसन्नता प्रकटिता। प्रधानमन्त्री नरेन्द्रमोदी अद्यारभ्य छत्तीसगढ़राज्यस्य द्विदिवसीय यात्रायामस्ति। महानिदेशकाणाम् आरक्षिमहानिरीक्षकाणां च अखिलभारतीयसम्मेलने भागग्रहणाय प्रधानमन्त्री गतसायं रायपुरे सम्प्राप्तवान्। नवारायपुरनगरस्य भारतीयप्रबन्धनसंस्थाने ह्यः त्रिदिवसीयसम्मेलनस्य आरम्भः अभवत्। अद्य श्वः च निर्धारितस्य सम्मेलनस्य विभिन्नानां सत्राणाम् अध्यक्षतां प्रधानमन्त्री करिष्यति। अस्मिन् सम्मेलने केन्द्रीयगृहमन्त्री अमितशाहः, राष्ट्रियसुरक्षापरामर्शदः अजीतडोभालः, गृहराज्यमन्त्री बन्दीसञ्जयकुमारः च उपस्थिताः भविष्यन्ति। सम्मेलनावधौ प्रधानमन्त्री विशिष्टसेवायाः कृते राष्ट्रपति आरक्षकपदकान्यपि प्रदास्यति। केन्द्रीयगृहमन्त्री अमितशाहः छत्तीसगढ़राज्यस्य रायपुरनगरे 60वें अखिलभारतीय आरक्षिमहानिदेशकानां डीजीपी आईजीपी सम्मेलनस्य उद्घाटनम् अकरोत्। केन्द्रीयगृहमन्त्री स्वस्य भाषणे अकथयत् यत् प्रधानमन्त्रिणः नरेन्द्रमोदिनः नेतृत्वे सम्मेलनस्य समाह्वानानाम् अभिज्ञानात् आरभ्य नीतिनिर्माणपर्यन्तं देशस्य आन्तरिकसुरक्षासमस्यानां समाधानार्थं प्रमुखमञ्चरूपेण उद्भूतमस्ति इति। नक्सलवादस्य विषये श्रीशाहः अवदत् यत् गत 7 वर्षेषु केन्द्रसर्वकारेण 85% यावत् दुर्गसदृशाणाम् आरक्षकस्थानकानां निर्माणं कृत्वा सुरक्षातन्त्रं सुदृढं कृतमस्ति। भारतं 26-27-2000 वर्षे अन्ताराष्ट्रियसमुद्रीयसङ्घटने सदस्यत्वेन पुनः निर्वाचितः। लन्दननगरे आईएमओ सभायाः 34वें सत्रे परिषदः निर्वाचनम् अभवत्। इत्यस्मिन् वर्गे निर्वाचने प्रदत्तेषु 79% वैधमतेषु भारतेन 54% प्राप्तानि। दिल्लीनगरनिगमस्य एमसीडी इत्यस्य 12 वार्ड इति विभागानां कृते उपनिर्वाचनं श्वः भविष्यति। मतदानं प्रातः 7:30 सायं 5:30 भविष्यति। अग्रिमे मासे तृतीयदिनांके मतानां गणना भविष्यति। इति वार्ताः।